इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवनियुक्तेभ्यः 170,000+ नियुक्तिपत्राणि वीडियो कॉन्फ्रेंसिंग इति आभासीय माध्यमेन वितरिष्यति। अस्मिन् अवसरे श्रीमोदी एकां सभाम् अपि संबोधयिष्यति। अस्माकं संवाददात्रानुसारि रोजगार मेलापकस्य आयोजनं देशे 45 स्थानेषु आयोजिताः भविष्यन्ति। नवनियुक्ताः गृहमन्त्रालये, प्रैष्यविभागे, उच्चशिक्षायां, स्वास्थ्य परिवार कल्याण मंत्रालये, वित्तीय सेवादिषु मंत्रालयेषु विभिन्नेषु विभागेषु च नियोजिताः भविष्यन्ति। वृत्त्यवसर मेलापकं यूनां मध्ये वृत्त्यवसराणां सृजनं सर्वोच्च प्राथमिकतां प्रदातुं प्रधानमन्त्रिणः प्रतिबद्धतायाः पूर्तये एकं सोपानमस्ति। राष्ट्रनिर्माणे आत्मसशक्तिकरणे च यूनां सहभागितायै सार्थकान् अवसरान् प्रददाति। अद्य नवदिल्ल्यां क्रिसमस उत्सवे प्रधानमन्त्री नरेन्द्रमोदी भागं गृह्णीयात्। अस्य कार्यक्रमस्य आयोजनं भारतस्य कैथोलिक विपश सम्मेलन इत्यनेन क्रियते। प्रधानमन्त्री क्रिश्चियन समुदायस्य प्रमुख नेतृभिः सह संवादं करिष्यति, यस्मिन् कार्डिनल विशपा चर्च इत्यस्य प्रमुखाः नेतारः च सम्मिलिताः भवन्ति। देशे कैथोलिक चर्च इत्यस्य मुख्यालये एतादृशे कार्यक्रमे प्रधानमन्त्री प्रथमवारं भागं गृह्णीयात्। कार्मिक लोक परिवाद राज्यमन्त्री डॉ जितेन्द्र सिंहः अद्य नवदिल्ल्यां सुशासन प्रथानां राष्ट्रिय कार्यशालायाः उद्घाटनं करिष्यति। कार्यशालायां सर्वेषां मन्त्रालयानां विभागानां च अधिकारिणः भागं गृह्णन्ति। डॉ सिंहः मूल्यांकन प्रतिवेदनस्य विमोचनेन सह विभिन्नैः मन्त्रालयैः विभागैः च स्वच्छता अभियानस्य 40.0 इत्यस्य उत्तमप्रथानाम् एकस्याः प्रदर्शन्याः उद्घाटनम् अपि करिष्यति। चतुर्थ सुशासन सप्ताहस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी स्वसन्देशे उक्तवान् यत् सुशासनं राष्ट्रस्य प्रगतेः कुञ्जिका अस्ति। सः अवदत् यत् जनानां समग्रकल्याणाय उत्तमाय च कार्येषु पारदर्शिता, कुशलता, उत्तरदायी च प्रशासनं महत्त्वपूर्णं पक्ष अस्ति। अद्य सम्पूर्णे देशे राष्ट्रिय कृषक दिवसः आचर्यते। अस्मिन् दिने राष्ट्रस्य विकासाय कृषकाणां योगदानस्य सम्मानं भवति। दिवसोऽयं खाद्य सुरक्षां सुनिश्चित्य ग्रामीण अर्थव्यवस्थानां स्थायित्वं, देशस्य कृषि विरासतां च संरक्षितुं कृषकाणां महत्त्वपूर्णायाः भूमिकायाः स्मारकरूपेण अपि कार्यं करोति। कृषकाणां महत्त्वपूर्णां भूमिकां स्वीकृत्य तेषां सामाजिक आर्थिक उत्थानस्य समर्थनाय सर्वकारेण नैके उपक्रमाः कृताः तथा च स्थायि कृषि वृद्धिं सुनिश्चितं करोति। एतेषु कार्यक्रमेषु प्रधानमन्त्री किसान सम्मान निधि, प्रधानमन्त्री फसल बीमा योजना, प्रधानमन्त्री किसान मानधन योजना च अन्तर्भवन्ति। एतासां योजनानाम् अन्तर्गतं कृषकाणां कृते वित्तीय सुरक्षा समाह्वान निवारणं, दीर्घकालीन सामाजिक सुरक्षा च प्रदीयते। महिला क्रिकेट क्रीडायां ह्यः बडोदरा नगरे तिसृणां क्रीडानां आईसीसी चैम्पियनशिप श्रृंखलायाः प्रथमायाम् एकदिवसीय क्रीडायां भारतेन वेस्टइंडीज दलं 11,00,000+ धावनांकैः पराजितम् इति वार्ताः।